एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। जलवायु परिवर्तनस्य प्रभावं न्यूनीकर्तुं हिमालय क्षेत्राणां संरक्षणस्य लक्ष्येण हिन्दुकुश हिमालय संसदीय सम्मेलनं ह्यस्तना दिवसात् काष्ठमण्डपे प्रारब्धमस्ति। सम्मेलनस्य उद्घाटनं विदधानः राष्ट्रपतिः रामचन्द्र पौडेलः जलवायु संकटस्य न्यूनीकरणाय संयुक्त कौटनीतिक सहकार्यं सुदृढं विधातुं बलं प्रादात्। राष्ट्रपतिः पौडेलः वैज्ञानिकानि तथ्यानि जनतायाः आवश्यकतांश आधृत्य जलवायोः जैविक विविधतायाश्च संरक्षणाय नीतेः निर्माणार्थं बलं दत्तवान्। सम्मेलने परराष्ट्रमन्त्री डॉ आरजू राणा देउवा कार्बन वायोः उत्सर्जनं न्यूनीकर्तुं जलवायु परिवर्तनेन जायमानां क्षतिं रोद्धुं च सर्वहि राष्ट्रहि शीघ्रमेव अग्रेसर्तव्यम् इत्यत्र बलं दत्तवती। समारोहे वन वातावरण मन्त्री ऐनबहादुर शाही ठकुरी सम्मेलनेन हिमालयीय क्षेत्राणां संरक्षणाय जलवायोः प्रभावस्य न्यूनीकरणाय च सर्वहि देशहि संवादस्य नीति निर्माणस्य च अवसरः लब्धोऽस्तीति अगदत्। कार्यक्रमे भूटान पाकिस्तान बंगलादेश म्यान्मार देशानां प्रतिनिधयः जलवायु परिवर्तनस्य विरुद्धे तत्कालमेव कार्यक्रमाणां संचालनम् आवश्यकमस्तीति उक्तवन्तः। अद्य यावत् सञ्चल्यमाणे सम्मेलने नेपालेन सहितानां हिन्दुकुश हिमालय क्षेत्रस्य विभिन्नानां देशानां प्रतिनिधयः सहभागिनः सन्ति। प्रधानमन्त्री केपी शर्मा ओली कथयति इजरायल देशे हमास नाम्ना विद्रोही समूहेन बन्दीकृतस्य विपिन जोशिनः सुरक्षितरूपेण यथाशीघ्रम् आनयनाय नेपाल सर्वकारेण यथासम्भवं प्रयासः विधीयमानो वर्तते। प्रधानमन्त्री ओली ह्य सामाजिक सञ्जालस्य माध्यमेन जोशिनः शीघ्रम् उन्मोचनस्य कृते प्रयासः करणं सर्वकारस्य दायित्वमस्तीत्यतः यथासम्भवं प्रयासः विधीयमानोऽस्तीति ज्ञापितवान् अस्ति। विपिन इत्यस्य सुरक्षितरूपेण शीघ्रम् उन्मोचनस्य सुनिश्चयनाय परराष्ट्र मन्त्रालयेन खातीय राष्ट्राणां दूतावासानां माध्यमेन नैरन्तरेण संवादः विधीयमानो वर्तते इति प्रधानमन्त्रिणा ओलिना संसूचितमस्ति। इजरायलवर्तिनः नेपाली दूतावासस्य समन्वयेन विपिन जोशिनः मात्रा पद्मा इत्यनया भगिन्या पुष्पा विदयाश्च राष्ट्रपतिना आइजाक हर्जोग इत्यनेन संसदः अध्यक्षेण अमीर ओहाना इत्यनेन सह मिलित्वा विपिन जोशिनः उन्मोचनाय प्रयासं कर्तुम् अनुरुद्धे स्तः इति प्रधानमन्त्रिणा ज्ञापितं वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिना 67th-2000 विक्रमवर्षीयां वैद्युताङ्कनयुत नेपालस्य संरचनां समय सापेक्षां विधाय नेपाल दूरसंचार प्राधिकरणस्य कार्यप्रगते विषये ह्य ज्ञातं वर्तते। सूचना संचार प्रविधे उपयोगं कृत्वा सुशासन विकास समृद्धिभ्य बलं प्रदत्तवान् प्रधानमन्त्री ओली संचार सूचना प्रविधि मन्त्रालयस्य सचिवेन राधिका अर्याल इत्यनया संरचनाया परिमार्जनं कर्तुं मन्त्रालयेन गृहकार्यं प्रारब्धम् अस्तीति विषयेण विज्ञापितः आसीत्। प्रस्तावित नूतन संरचनाया मन्त्रिपरिषदा स्वीकृतेः पश्चात् क्रियान्वयनं भविष्यति। संघीय सर्वकारीय सेवा विधेयके संविधाने संघीयतायां समानुपातिक समावेशितायां पारदर्शितायां च विशेषं ध्यानं देयम् इत्यत्र सांसदैः बलं दत्तमस्ति। राष्ट्रियसभायाः विधायन व्यवस्थापन समितौ विधेयकमम् आधृत्य ह्य सम्भूते सैद्धान्तिक विमर्शने सांसदाः सर्वेषां स्तराणां कर्मचारिणां वृत्ति विकासाय समाना व्यवस्था विधातव्या, स्थानान्तरणं पदोन्नतिश्च पारदर्शितया व्यवस्थिततया विधातव्ये इत्युक्तवन्तः। उपवेशे संघीय विषय सामान्य प्रशासन मन्त्री भगवती नेउपाने कर्मचारिणां स्थानान्तरणं पदोन्नतिश्च व्यवस्थिते विधातुं संघीय सर्वकारीय सेवा विधेयकं महत्वपूर्णं भवति इति अगदत्। प्रतिनिधिसभातः पारिते विधेयके आधिक्येन विमर्शनस्य आवश्यकता वर्तते इत्युक्त्वा राष्ट्रियसभया विधायन व्यवस्थापन समितौ प्रेषितमस्ति। प्रतिनिधि सभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितौ विद्यालय शिक्षा विधेयक सम्बद्धं समित्या सचिवालयेन निर्मितं प्रतिवेदनं प्रस्तुतमस्ति। समितेः स्तनोपवेशे समिति सचिवालयेन प्रतिवेदने द्विरावर्तितान् विषयान् अपसार्य भाषां परिष्कृत्य निर्मितं विद्यालय शिक्षा विधेयक सम्बद्धं प्रतिवेदनं प्रस्तुतमस्ति। एवमेव स्तनोपवेशे शिक्षा विज्ञान प्रविधि मन्त्रालयेन विपन्नेभ्यः छात्रेभ्यः 15.2% आवास सौविध्यस्य प्रदानस्य प्रस्तावे सांसदानाम् असहमतभावनानन्तरं विषयममुम् आगामिनि उपवेशे निर्णेतुं पूर्वकार्यं विहितमस्ति। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा भाषते स्थापितः दलहि न किमपि कर्तुं शक्तं नास्तीति उक्त्वा अतिरञ्जितरूपेण प्रतिकूल भाष्यं निर्माय समाजं दिग्भ्रान्तं विधातुं प्रयासः विधीयमानो वर्तते। दलस्य शुभेच्छुक संस्थायाः समन्वय विभागेन ह्य सानेपावर्तिनी दल केन्द्रीय कार्यालये आयोजितायाम् अन्तर्क्रियायाम् हरितालिका पर्वणः शुभकामनायाः आदान प्रदान कार्यक्रमे च सभापतिः देउवा कस्मिंश्चिदपि भ्रमे न निपत्य दलं सुदृढं विधातुं सर्वहि प्रवर्तनीयमित्यत्र बलं दत्तवान्। तदवसरे महामन्त्री गगन कुमार थापा दलस्य शुभेच्छुक संस्थाभिरपि समये अधिवेशनं सम्पाद्य गतिशीलाभिभाव्यमित्यत्र बलं प्रादात्। भारतीय सर्वकारेण नेपाली सेनायै कानिचित यातायात साधनानि अश्वः विपद घटनानाम् अनुसन्धानस्य क्रमे प्रयोक्तुं शक्यः प्रशिक्षितः श्वानश्च सहयोग स्वरूपेण प्रदत्ताः सन्ति। नेपालस्य द्विदिवसात्मके भ्रमणस्य क्रमे नेपाले विद्यमानेन भारतीय विदेश सचिवेन मिश्र इत्यनेन सैनिक मुख्यालये ह्य आयोजिते कार्यक्रमे एतेषां सहयोग सामग्रीणां हस्तान्तरणं विहितमस्ति। तत्पूर्वं प्रधान सेनापतिना अशोक राज सिग्देलेन सह भारतीय विदेश सचिवेन मिश्र इत्यनेन सैनिक मुख्यालये शिष्टाचार मेलवार्ता विहितासीत्। जुम्ला जनपदवर्तिनी कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठाने वृक्कोपचार सम्बद्धा सेवा प्रारब्धा अस्ति। वृक्क रोगिणां कृते महत्वपूर्णायाः डायलासिस इति वृक्कोपचार सेवायाः प्रारम्भेण सहैव रोगिणां कृते सौविध्यं सम्भूतमस्तीति प्रतिष्ठानस्य उपकुलपतिः डाक्टर पूजन रोकाया असूचयत्। जुम्ला जनपदे अशीत्युत्तर 2000 वैक्रमाब्दे एव अस्याः सेवायाः प्रारम्भणं विहितं सदपि उपकरणानां जनशक्तेश्च अभावेन सेवेयं संचालयितुं शक्ता नासीत्। म्याग्दी जनपदस्य रघुगंगा ग्रामपालिकायां भूस्खलने निपत्य द्वौ जनौ मृतौ स्तः। म्याग्दी जनपदस्य रघुगंगा ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य दगनाम स्थाने निर्माणाधीनायाः आयोजनायाः तटबन्धे दुरापन्ने जलविप्लवे निपत्य बागलुङ जनपदस्य तमानखोला ग्रामपालिकायाः द्वाविंशति वर्षीयः सुजन बुढामगरः, चितवन जनपदस्य च आसन्न 45 वर्षीयः लालबहादुर सुनार च मृतौ इति परिणा ज्ञापितं वर्तते। भूस्खलने निपत्य 5 जनाः आहताः वर्तन्ते इति समाचारः।